नमस्कारः सर्वेषां स्वागतम्। इदानीं कक्षाम् आरम्भं कुर्मः। गोपिका भगिनी ध्येयं मन्त्रं कृपया वदतु।
पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरं, संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्। संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरं, संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्, आत्मानमाहुतं मन्ये, वन्दे संस्कृतमातरं, हिन्दुधर्मं समाजं च, पवित्रां संस्कृतिं तथा संरक्ष्य ननु कुर्याम, विश्वं शान्ति समन्वितम्। ओम शांति शांति शांति। हरि ओम श्री गुरुभ्यो नमः। हरि ओम।
बहु धन्यवाद भगिनी। इदानीं एकवारं वयं विभक्ति विषये पश्यामः। तो अत्र अकारान्त पुल्लिङ्ग, आकारान्त स्त्रीलिङ्ग, ईकारान्त नपुंसकलिङ्ग अपि अस्ति, अपि च सर्वनामपदम् पुल्लिङ्गे, स्त्रीलिङ्गे, नपुंसकलिङ्गे, अग्रे अपि तथा एव अस्ति। नपुंसकलिङ्गम्, एतत् स्त्रीलिङ्गं, नपुंसकलिङ्गं, त्वम् इति अस्ति, त्वं मास्तु। एतत् पर्यन्तं वयं किमपि स्वीकृत्य पश्यामः, किमपि पदं स्वीकृत्य पश्यामः। अस्तु, गोपिका भगिनी आरम्भं करोति वा? भवती किं कर्तुम् इच्छति? एतत्, अस्तु। एतत् इति एतद् शब्दः, तस्य दकारान्तपुल्लिङ्गशब्दः। अस्तु भगिनि, एतत् पुल्लिङ्गं वा स्त्रीलिङ्गं वा किम् इच्छति भवती?
स्त्रीलिङ्गं भगिनि।
ओके, स्त्रीलिङ्गम्
एषा।
अस्तु,
एषा, एते, एताः, एतां, द्वितीयाविभक्ति एतां, एते, एताः, एतया, एताभ्याम्, एताभिः, एतस्यै, एताभ्याम्, एताभ्यः, एतस्याः, एताभ्याम्, एताभ्यः, एतस्याः, एतयोः, एतासाम्, एतस्याम्, एतयोः, एतासु।
पुनः एतस्याः वदतु भगिनि, पञ्चमी विभक्ति।
आं भगिनि, एतस्याः, एताभ्याम्, एताभ्यः,
एताभ्यः। सो अत्र एताभ्यः, एताभ्यः समानरूपं, चतुर्थी पञ्चमी बहुवचने समानरूपम्। एताभ्याम्, एताभ्याम्, एताभ्याम् द्विवचने तृतीया चतुर्थी पञ्चमी समानरूपम्। पञ्चमी षष्टी एकवचने समानरूपम्। षष्टी सप्तमी द्विवचने समानरूपम्। एवमेव प्रथमा द्वितीया द्विवचने समानरूपम्। अस्तु, अस्तु वा? अस्तु, अग्रे। केतकी भगिनि।
आं भगिनि,
भवती वदतु किं एषा वा? एषा, अस्तु,
ओके। एषा, एते, एताः, एताम्, एते, एताः, एतया, एताभ्याम्, एताभिः, एतस्यै, एताभ्याम्, एताभ्यः, एतस्याः, एताभ्याम्, एताभ्यः, एतस्याः, एतयोः, एतासाम्, एतस्याम्, एतयोः, एतासु।
उत्तमं भगिनि,
धन्यवादः भगिनि।
ज्योति अस्मि।
स्वागतं ज्योति
भगिनि।
नमस्ते। अन्य कोऽपि अस्ति वा नूतनतया ये आगतवन्तः? न, अस्तु। सागरी भगिनी, भवती किं कर्तुमिच्छति? कत् शब्दः पुल्लिङ्ग भगिनि
पुल्लिङ्ग अस्ति अस्तु
पुल्लिङ्ग तत् शब्दः सः तौ ते तं तौ तान् तेन ताभ्यां तैः तस्मै ताभ्यां तेभ्यः तस्मात् ताभ्यां तेभ्यः तस्य तयोः तेषां तस्मिन् तयोः तेषु
उत्तमं भगिनि धन्यवादः शारदा भगिनि
आं भगिनि अस्मत् शब्दः
अस्मद् अत्र अस्ति वा इति पश्यामि अन्तिमे अस्ति इति
भगिनि ऐ हेव् अ क्वश्चन्
वदतु भगिनि
see you had pointed out certain patterns to us when in the striling tat shabda of similarities across the ekavachan dvivachan bahuvachan but that template cannot be superimposed on the pullinga shabda right I mean it's not identical for instance we said tritiya chaturthi panchami dvitiya vachan is the same so. Now if we transpose it that happens to be the same in pullinga but will that pattern work for the other similarities also or not necessarily okay. across the lingas
yeah well it's a very good question so for pullinga and napumsakalinga samana pattern asti udaharanartham atra dvivachane prathama vibhakti dvitiya vibhakti samana okay सर्वत्र सर्वत्र समानं तृतीया चतुर्थी पञ्चमी द्विवचने सर्वत्र समानं पुल्लिङ्ग स्त्रीलिङ्ग नपुंसकलिङ्ग सर्वत्र समानं बहुवचनं चतुर्थी पञ्चमी सर्वत्र समानं
सर्वत्र
सर्वत्र एवमेव षष्ठी सप्तमी द्विवचने समानरूपं पश्यामः वयं परन्तु पञ्चमी षष्ठी भिन्नरूपं भवति
भिन्नरूपं
भवति अत्र
तस्याः तस्याः
तस्याः तस्याः समानरूपम् अस्ति स्त्रीलिङ्गे परन्तु पुल्लिङ्गे नपुंसकलिङ्गे समानरूपं नास्ति परन्तु अन्य सर्वत्र समानम् उदाहरणार्थं प्रथमा द्वितीया द्विवचनं समानं तृतीया चतुर्थी पञ्चमी द्विवचने समानं षष्ठी सप्तमी द्विवचने समानं बहुवचने बहुवचने चतुर्थी पञ्चमी समानं सो अत्र पञ्चमी षष्ठी अपि समानं परन्तु पुल्लिङ्गे नपुंसकलिङ्गे तथा नास्ति एतत् नपुंसकलिङ्गपदकोष्ठः तत्र पञ्चमी षष्ठी समानं नास्ति परन्तु अन्यत्र समानमेव
अस्तु भगिनि बहु धन्यवादः
अस्तु 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 शारदा भगिनी अस्मशब्दमिति उक्तवती खलु अस्तु अस्तु
दकारान्तः त्रिषु लिङ्गेषु समानः अस्मत् शब्दः अहम् आवां वयं माम् आवाम् अस्मान् मया आवाभ्याम् अस्माभिः मह्यम् आवाभ्याम् अस्मभ्यः
अस्मभ्यं
मत् आवाभ्याम् अस्मत् मम आवयोः अस्माकं मयि आवयोः अस्मासु
उत्तमं भगिनि उत्तमं सविता भगिनि प्रश्नः वा पृच्छतु गोपिका भगिनि
नः इति साधारणतया उपयोगं कर्तुं शक्नुमः वा
साधारणतया अहं न पश्यामि सर्वत्र भगिनि सर्वत्र
एकत्र एकदा अहं दृष्टवती एकस्मिन् सुभाषिते तत् उक्तवान् 80 रूपी कोर्स् मध्ये तत् काव्येषु तत्रैव दृश्यते इति
निश्चयेन निश्चयेन वयं एतत् वयं जानीमः खलु भूर्भुवस्सुवः इति
नमस्कार भगिनी पर्मिशन् हियर् केन् यु हियर् मी
आं महोदय आं महोदय
बिकास् ऐ हेड् सम् प्रोब्लम् एर्लियर् दट्स् वै ऐ एम् चेकिङ्ग् थेङ्क् यु
अस्तु महोदय धन्यवादः या सो अत्र धियो यो नः प्रचोदयात् अत्र दियो यो नः प्रचोदयाति इति वदामः वयं परन्तु अत्र दियो यो नः सो अस्माकम् इति अर्थे भवति सो अत्र नः इति अस्ति चेत् एकनिमिषम् सो अत्र नः इति पश्यामः चेत् द्वितीया चतुर्थी पञ्चमी ऐ मीन् षष्टि ईवन् नम्बर्स् द्वितीया चतुर्थी पञ्चमी सो अत्र सन्दर्भानुसारं वयम् अवगन्तुं शक्नुमः द्वितीया वा चतुर्थी वा षष्टि वा इति एवमेव नौ अपि समानमेव नौ द्वितीया चतुर्थी षष्टि अत्र अपि मा इति अस्ति माम् इति अस्ति मा अपि अस्ति मे 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 वयं कुत्र इत्युक्ते मह्यं मे पश्यामः खलु कुत्र इति अहं न स्मरामि इदानीं तत्र अत्र अस्ति
मे इति कृष्णप्रेमकं
वदतु भगिनि मे इति कृष्णप्रेमी
महाप्रभु अस्ति खलु सः तस्य गीतेषु बहवः उपयोगं करोति
धन्यवादः अस्तु सविता भगिनि वदतु
आं भगिनि अस्मत् शब्दः अहं
अस्तु
अस्मत् शब्द अहम् आवां वयं माम् आवाम् अस्मान् मया आवाभ्याम् अस्माभिः मह्यम् आवाभ्याम् अस्मात् मह्यम् आवाभ्याम् अस्माभ्यं मत् आवाभ्याम् अस्मत् मम आवयोः अस्माकं मयि आवयोः अस्मासु
अस्मासु अत्र अस्मभ्यम् ओके अस्मान् अस्माभिः इति अस्ति परन्तु अत्र अस्मभ्यम् एव अस्मभ्यम् उमाकृष्णन् भगिनी अग्रे
भगिनि पुल्लिङ्ग किं शब्द
उत्तम
कः कः कौ के कं कौ कान् के काभ्यां कैः कस्मै काभ्यां केभ्यः कस्मात् काभ्यां केभ्यः कस्य कयोः तेषां कस्मिन् कयोः केषु
उत्तमम् अस्तु सन्ध्या भगिनि
आं भगिनि कः कौ के कं कौ कान् केन काभ्यां कैः कस्मै काभ्यां केभ्यः कस्मात् काभ्यां केभ्यः कस्य कयोः केषां कस्मिन् कयोः केषु
उत्तमं भगिनि धन्यवादः ज्योति भगिनि
भगिनि युष्मत् शब्दः अस्ति वा दकारान्तः त्रिषु लिङ्गेषु युष्मत् शब्दः समानः युष्मत् शब्दः त्वं युवा यूयं त्वां युवां युष्मान् वयाभ्यां युष्माभ्यां युवाभ्यां युष्मभ्यं कत् युवाभ्यां युष्मत् तव युष्माकं वै युवयोः युष्मा
उत्तमं भगिनि. अग्रे का अस्ति अथवा कः अस्ति? परमेश्वर महोदय.
Which one
do you want to do, Mahoraya?
Bhavati.
Bhavati, asti va iti pashya.
Okay. Ikaranda srilinga bhavati shabdaha. Bhavati, bhavatyau, bhavatyaha. He bhavati, he bhavatyau, he bhavatyaha. Bhavati, bhavatyau, bhavatihi. Bhavatya, bhavatibhyam, bhavatibhihi. Bhavatyai, bhavatibhyam, bhavatibhyaha. Bhavatyaha, bhavatibhyam, bhavatibhyaha. Bhavatyah, bhavatyau, bhavatinam. Bhavatyam, bhavatyau, bhavatishu.
Tatra, bhavatyoh.
Acha, bhavatyoh.
Asta. Anya kopi asti va?
Asti va, bhagini, Usha.
Usha bhagini, vadatra. Bhavati kim pati, vakti.
What should I select? I don't know which one has not been done.
Which one has not been done? Napumsakalingam.
Yeah. This is Pumlingam.
Napumsakalingam. Kim iti asti khalu, kim kani.
Samanam asti va?
Na.
Okay. Kim, prathama vibhakti, kim ke kani, dvitiya, kim ke kani, tritiya kena kabhyam kaihi, chaturthi kasmai kabhyam kebhyaha. Panchami is kasmat kabhyam kebhyaha. Shashti is kasya kayoho kesham. Saptami kasmin kayoho keshu.
Kasmin kayoho keshu. Anya kopi asti va? Nasti iti manya. Agrima varge vayam kim kurmaha ittikte eka vachanam eva svikritya vakyani vadamaha. अस्तु वा. उदाहरणार्थं सुलभं प्रथमं पश्यामः इत्युक्ते अकारान्तपुल्लिङ्गपदम् इति. रामशब्द रामः अथवा बालकः अथवा आसन्दः अथवा आकाशः इत्यादि स्वीकृत्य आकाशः अस्ति, अहम् आकाशं पश्यामि. आकाशेन इति सम्यक् नास्ति चेत् वयं चषकेन पिबामि. अग्रे चतुर्थी वृक्षः. भिन्नभिन्नपदम् उपयुज्य रूपम् अपि च वाक्यमपि वदामः. अस्तु वा? अस्तु
भगिनि.
अस्तु. Agre Abhyasadarshini Pratikini.
Pratikini, for all lingas, you'd like us to practice? Or
yeah,
only?
Something, you know, you practice something and then it will take time, but it will be
very interesting, Bhagini. We'll do it.
So you come prepared, okay, for Pullinga Va, Stri Linga Va, Napumsaka Linga Va. Okay, Idani.
Any one word or different words.
Udaharanartham palam
What I mean is, take one word, phala shabdaha, and practice all from prathama to saptami.
Na, katha nasti, aham vadami, vakyam vadami.
That's what I'm saying. If using the verb phala shabdaha,
only eka vachana, only eka vachana.
But you want us to practice, I mean, like, kind of think about sentences in all vibhaktis, right?
And all akaranta, ikaranta, ukaranta, sarvanama, all of them, Bhagini?
We will first start with just the nama padani, eva, pratama.
Bhagini, udaharanam vadatu.
Saha, or sa, or tat, or kaha, all that, okay? We will just start with nama padam.
Nama padam, okay.
Bhagini.
Vadatu, Bhagini.
Bhagini, udaharanam vadatu.
उदाहरणम् अहं वदामि फलम् अस्ति वनं गच्छामि सङ्गणकेन कार्यं करोमि मित्राय धनं ददामि मित्रात् स्वीकरोमि अथवा गृहात् बहिः गच्छामि पुस्तकस्य नाम अनन्तरं पुस्तके ज्ञानम् अस्ति गृहे जनाः न सन्ति अथवा जनाः गृहे एव सन्ति इति
धन्यवादः भगिनी अस्तु
सो भगिनी वी केन् यूस् डिफरेण्ट् वर्ड्स् दट्स् वाट् यू आर् सेयिङ्ग् राइट्
आमाम् यूस् डिफरेण्ट् वर्ड्स्
ओके
अस्तु इदानीम् अभ्यासदर्शिनी प्रति गच्छामः दर्शिनीं प्रति गच्छामः तत्र अस्माकं विषयः अस्ति उपसर्गः इति उपसर्गः कुत्र उपयोगं कर्तुं शक्नुमः वयं नामपदे वा क्रियापदे वा
क्रियापदे
धातोः पूर्वं वा धातोः परं वा
पूर्वम्
उत्तमं सो अत्र गच्छतु इति अस्ति आ इति उपसर्गः अस्ति तारयतु इति अस्ति अव इति अस्ति सो अत्र अहम् एकं वदामि प्रथमं पठनात् पूर्वम् उपसर्गः द्वाविंशतिः अस्ति सो अत्र उत् अव परि उष्णी इति उपसर्गः नास्ति परन्तु उपसर्गतुल्याः सन्ति ते सम् इति अस्ति उत् अस्ति प्र अस्ति सं अस्तु सो पठामः वयं क आरम्भं करोति गोपिका भगिनी वाक्यद्वयं पठतु
आं भगिनि ललिता सुरेश आगच्छतु भवान् अत्र दालपात्रम् अवतारयतु तावत्
अग्रे
सुरेश आं भगिनि
पश्यामि भगिनि पश्यति वा नो न षण्णवतिः ओ रैट् 96 अस्तु अग्रे अपि पठतु भगिनि गोपिका
सुरेशः अहं पठन् अस्मि भगिनि भवती एव चतुष्पादिकाम् आनयतु उपरि आरोहतु पात्रम्
अवतारयतु सो अत्र सुरेश इति सम्बोधन खलु सम्बोधन सुरेश आगच्छतु गच्छतु इति अस्ति अत्र आ इति उपसर्गः सो अत्र उपसर्गयोगेन अर्थपरिवर्तनं भवति अथवा अर्थपोषणं भवति अथवा आत्मनेपदी धातु परस्मैपदी अपि भवति सो अत्र गच्छतु इति अर्थं वयं जानीमः आगच्छतु इति विपरीत अर्थं भवति अस्तु वा सो अत्र एक अस्ति उदाहरणम्
विपरीत अर्थस्य उदाहरणम् अत्र दालपात्रम् अवतारयतु तारयतु इत्युक्ते अधः अधः आनयतु इति अधः आनयतु सो अवतारयतु अपि समान अर्थ एव सो अवतारम् इति वदामः खलु नारायणस्य अवतारं सो अत्र अधः आनयतु इति अवतारयतु तावत् अहं पठन् अस्मि सो अत्र पठन् अस्मि इत्युक्ते पठनकार्यं न समाप्तम् इति अर्थे अस्ति सो वयं वदामः तात्कालिकवर्तमानकाल तात्कालिकवर्तमानकाल इति वदामः वयं पठन् अस्मि भगिनी भगिनी अपि सर्वनामपदम् सो भगिनी इति ईकारान्तस्त्रीलिङ्गं भगिनी इति अभवत् सो भवति एव चतुष्पादिकां चतुष्पादिकाम् इत्युक्ते तस्य उपरि गच्छतु उपरि आरोहतु अत्रापि आरोहतु इति अस्ति
इत्युक्ते क्लैम्ब्
क्लैम्ब् आरोहण सङ्गीते अस्ति खलु आरोहणम्
आरोहणम् अवरोहणम्
आरोहणं सरिगम उपरि गच्छति आरोहणम् अवतारणम् ओके सो अत्रापि अवतारणम् आरोहणम् अवरोहणम् इति अवतारयतु अधः आनयतु इति अस्ति पात्रम् आनय अधः आनयतु प्रश्नाः सन्ति चेत् पृच्छन्तु नो चेत् अधः दालपात्रम् उपरि अस्ति अधः आनयतु इति अस्ति अवतारयतु धारयतु ओके सो उत्तमप्रश्नः सो अत्र तारणं तारणम् इत्युक्ते नदी अस्ति इतः तत्र गमनसमये तारयतु इति वदामः वयं अन्य उदाहरणमपि अपि अस्ति वयं वदामः राममन्त्रं तारकमन्त्रम् इति तारकमन्त्रम् इत्युक्ते संसारस्य तरणं कर्तुं उपयोगी मन्त्र अस्ति राममन्त्रम् इति तारकमन्त्रं टु क्रास् इति अर्थे अस्ति सो अत्र अव इति उपसर्गः योजयामः चेत् भिन्न अर्थं भवति
किम् अस्ति
अवतारयतु ब्रिङ्ग् इट् डौन् तारयतु क्रास् इट्
Avatarayatu is to bring it down.
Bring it down.
In this context only, right?
In this context. Dalapata avatarayatu. Atra nayatu. Nayatu ittikte itaha svikritya tatra gacchatu iti. Nayatu, take it. Iti arte bhavati. Parantu anayatu. Iti vadamaha chet artaha kaha?
Bring it.
Bring it.
Nayatu.
ततः नीत्वा अत्र आगच्छतु इति सो आनयतु स्वीकृत्य अतः आनयतु ब्रिङ्ग् इट् इति टेक् ब्रिङ्ग् भिन्नार्थं भवति
भगिनी वाट् इस् फार् आरोहतु देन् हर उपसर्गं त्यक्त्वा
रोहतु इति अस्ति अहं दृष्टवती न जानामि पुनरेकवारं पश्यामि अहमपि ज्ञातुमिच्छामि एकनिमिषम् रोहति इति अस्ति रोहति समान अर्थ एव क्लैम्ब् इति अस्ति
धन्यवादः
अस्तु पूर्वमेव दृष्टवती परन्तु विस्मृतवती अस्तु
सो अत्र उत्तमप्रश्नः भगिनि, रोहतु इत्युक्ते उपरि गच्छतु इति अर्थे, आरोहतु अपि समान अर्थ एव. सो अत्र भिन्न अर्थं भवति, अत्र समान अर्थ एव.
डैरेक्षन् मध्ये
भवति वा? डैरेक्षन् मध्ये टु क्लैम्ब् एव, अप् एव.
How would you say to climb down?
Avarohatu.
So it's same meaning.
So atra kinchit bhinna meaning. Ityukte avarohatu ityukte bhavati arohatu bhavati avarohatu. परन्तु अन्य लैक् उदाहरणार्थं सम्बडि इस् अप् देर् ओके, बालकः वृक्षस्य उपरि अस्ति, बालकम् अवतारयतु इति एव वदामः वयं. सो दिस् वि काल् निच् प्रयोगः इति. सो फार् द निच् प्रयोग यु मेक् यु डु संथिङ्ग् यु make it happen for somebody, like karyanam chalati, aham karyanam chalayami iti arthe bhavati tatra.
So bhagini, would we say sorry, please go on.
So bhagini, so why we are using upsarga?
Because we want to say something different, Bhagini. So, gacchatu iti asti. Gacchatu iti vaktum iccha mahache, upasarga atra avashyaka halo.
Okay.
Bhagini, would we then say upari arohatu and adaha avarohatu?
For somebody, yeah, you climb up, you come down.
Chatushpadikam, padikam is a stool, is it?
Stool.
Okay. Dhanyavad.
Bhagini, but rohatu and arohatu mean the same. Is it okay to use either one?
But we generally use arohatu, Bhagini. Arohanam, avarohanam, we never say rohanam and then rohanam, no. Arohanam, because when we add bhinna rupam bhavati kalu, arohanam, avarohanam iti. So, rohanam iti to climb up or down, both. So, when we say like Angila Bhashayam Vadama kalu, take the stairs iti. Use the stairs. That is to go up or down. Rohatu. Rohatu generally meaning to go up. Parantu.
So this specifies this. Arohatu is climb up. Avarohatu is climb down.
So atre pashya mahachet. Arohatu. Rohati is to ascend. Ascend eva. But we generally use only arohatu. Asta anya prashna asti va?
Dhanyavadah bhagini, avagatam.
Anya kopi
chatushpadikam padikam? Bahuvachanam.
No, ekavachanam kalo, strilinge dvivachanam.
I see. Okay, so this is four legged stool, right? Four-legged stool is what it means. If it is a three-legged stool, I wonder.
Kripadika. Actually, it is Kripadika. Parantu Anayatu iti asti, ataha Kripadikam iti bhavati. अस्तु अग्रे गच्छामः. केतकी भगिनी,
आं भगिनि ललिता अहं न शक्नोमि इत्यतः भवन्तम् आह्वयामि सुरेशः अद्य प्रातःकालतः सर्वे माम् एव कार्यं दिशन्ति
दिशन्ति अस्तु अहं न शक्नोमि इत्यतः भवन्तं भवन्तम् इति रूपं किं भवन्तं भवन्तम् आह्वयामि भवन्तमिति भवान् शब्दस्य द्वितीयाविभक्तिरूपम् भवन्तम् अहम् आह्वयामि अत्र ह्वयामि आह्वयामि समानार्थकपदम् अत्र रोहतु आरोहतु इति अस्ति खलु तथा एव ह्वयति आह्वयति समानार्थकपदम् अद्य प्रातःकालतः सर्वे मामेव कार्यम् आदिशति माम् इति रूपं किं माम् वदतु अस्तु चिन्ता मास्तु द्वितीय अहम् इति पदस्य द्वितीया विभक्ति अत्र भवान् इति पदस्य द्वितीया विभक्ति भवन्तम् अत्र अहम् इति पदस्य द्वितीया विभक्ति माम् अहम् अत्र अस्मि मां पश्यतु अहं वदामि मां शृणोतु इति अर्थे भवति सो अत्र सः वदति अहं प्रातःकालतः अद्य प्रातःकालतः सर्वे मामेव कार्यम् आदिशन्ति दिशन्ति आदिशन्ति आदेशं कृतवान् आदेशं कृतवती इत्युक्ते किम् आदेशम् आर्डर् सो वि टेलिङ्ग् पीपल् एतत् करोतु इति सो दिशति अपि समानमेव दिशि दट् इस् टु शो डैरेक्षन् समानार्थ एव अर्थ सो अत्र वि काल् इट् अर्थपोषणम्
ओके आदिशन्ति
सो अत्र अपि अर्थपोषणम् रोहतु आरोहतु दिशति आदिशति इत्युक्ते अहं वदामि भवान् करणीयमेव अहं किं वदामि तत् करणीयमेव भवता करणीयमेव इति पोषण मीन्स् इट् इट् एन्हान्सेस् द मीनिङ्ग्
सपोर्ट् रैट्
नाट् नाट् द डैरेक्षन् सो अत्र समान अर्थ अस्ति खलु सो अर्थस्य पोषणं भवति सो सो इट् 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 मेक्स् दि अर्थ स्ट्राङ्गर्
पोषणं रैट्
पोषणं नरिश्मेण्ट्
नरिश्मेण्ट् आम् सत्यं नरिश्मेण्ट् परन्तु अत्र अर्थस्य पोषणं भवति दट् मीन्स् द अर्थं बिकम् स्ट्राङ्गर्
सो हि इस् टेलिङ्ग् देट् सिन्स् मार्निङ्ग् I have done so many things, right?
Everybody is telling me so many things.
Everybody is telling me. So that's the Adi Shanti.
Adi Shanti, yeah.
Strongest.
No, not like that.
Dishanti, telling, everybody is telling me.
No, Bhagini. Dishanti means somebody is giving you directions. Hey, do that, like that. Parantu, Adi. आदिशन्ति इत्युक्ते करोतु इति लैक् यु नो वेरि स्ट्राङ्ग्ली दे आर् सेयिङ्ग्
इन्स्ट्रक्टिङ्ग्
सो दिस् इस् एन् इन्स्ट्रक्शन् दिस् इस् एन् आर्डर्
ओके ओके
दिशन्ति लैक् यु नो डैरेक्षन् वि काल् इट् डैरेक्षन् रैट् दे आर् गिविङ्ग् डैरेक्षन् ऐ थिङ्क् यु शुड् डू इट् सो देट् इस् दिशन्ति आदिशन्ति डू इट् ओके So the direction became an order. So we call that portion, artha portionam bhavati. Astu bhagini vadatu.
Is adishanti vikarmak dhatu va?
Nischayena.
Kariyam.
Nischayena bhagini. Good observation. Astu. Nischayena.
विकर्मक धातु
भगिनी इत्यतः इस् इति प्लस् अतः
इति अतः
धन्यवादः
अस्तु अन्यप्रश्नः अस्ति वा न अस्तु अग्रे गच्छामः अग्रे सागरि भगिनी
आं भगिनि ललिता तर्हि कति कार्याणि कृतवान् भवान् सुरेशः अहं प्रातः क्षीरम् आनीतवान् सस्यानि आरोपितवान् पुत्रिणानि उत्पादितवान्
अस्तु सो अत्र सो अतः सम्भाषणमस्ति खलु भगिनी गाता सो ललिता तर्हि कति कार्याणि कृतवान् भवान् अहं प्रातः क्षीरम् आनीतवान् अत्र नीतवान् आनीतवान् सस्यानि आरोपितवान् आरोपितवान् इत्युक्ते प्लाण्टेड् सस्यानि आरोपितवान् रोपितवान् आरोपितवान् समानार्थम् तृणानि उत्पाटितवान् पाटितवान् उत्पाटितवान् अत्रापि समानार्थकपदम् सो अत्र खु इति अपि अस्ति This means grass.
Weeds.
So, atta khu iti yojayamaha chet, weed iti prati. Sasyani aropitavan, khu krinani utpatitavan. Patitavan iti ukte, to take it. Utpatitavan iti ukte, to pull it. सो सो किञ्चित् भिन्न अर्थं भवति
भगिनी
भगिनी ऐ जस्ट् हेड् अ क्वेश्चन्
एकनिमिषं भगिनी अहं सर्वान् पुनः म्यूट् करोमि अस्तु पृच्छतु
आरोपितवान् वाट् इस् इट् मीन् सस्यानि आरोपितवान्
आरोपितवान् मीन्स् टु प्लाण्ट् द plants
so it's actually the verb would be ropitavan
bagini vadatu
verb is actually ropitavan and we are adding in
ropitavan aropitavan satyam
okay
a is the upasarga da so this ku is not a upasarga because it is before a namapadam namapadasya namapadat purvam asti che tat upasargah nasti परन्तु कूतृणानि इत्युक्ते वीड्स् दट् मीन्स् सम्थिङ्ग् कू इत्युक्ते सम्थिङ्ग् बेड् द कु पुरुषः सो अत्र कूतृणानि बेड् ग्रास् दट् वीड्स् उत्पाटितवान् पाटितवान् टु टेक् डौन् इति अर्थे उत्पाटितवान् टु पुल् अप् इति अर्थं भवति अस्तु अग्रे शारदा भगिनी
आं भगिनी ललिता एतादृशानि कार्याणि अहमपि बहूनि कृतवती पुष्पाणि सङ्गृहीतवती पात्राणि प्रक्षालितवती गृहं सम्मार्जितवती स्नानगृहे अग्निं प्रज्वालितवती कूपात् जलम् उद्घृतवती
उद्धृतवती एता दृ अत्र दृ इति अस्ति एतादृशानि कार्याणि वयं पूर्वमेव पठितवन्तः खलु एतादृश कीदृश तादृश ईदृश सो अत्र एतादृशानि कार्याणि
इति भवति. एतादृशानि कार्याणि, सो अत्र कार्याणि नपुंसकलिङ्ग बहुवचनम्, अतः एतदपि नपुंसकलिङ्ग बहुवचनम्. अहमपि बहूनि कृतवती, कार्याणि बहूनि, बहूनि कार्याणि कृतवती. पुष्पाणि सङ्गृहीतवती, गृहीतवती इत्युक्ते स्वीकृत, टु होल्ड् इति, हस्ते अहं हस्ते अस्ति इति अर्थे. पुष्पाणि सङ्गृहीतवती इत्युक्ते पुष्पाणि एकत्र आनयामि इति, टु कलेक्ट्, किञ्चित् भिन्न अर्थम् इति. गृह्णाति सङ्गृह्णाति. पात्राणि प्रक्षालितवती, क्षालितवती प्रक्षालितवती समान अर्थ, अर्थपोषणम् अत्र, अत्र अत्र अर्थपोषणम्, अत्र विपरीत अर्थ, विपरीत न भिन्न अर्थम्. मार्जितवती इत्युक्ते स्वच्छीकरोमि इति, सम्मार्जितवती अपि समानार्थकपदमेव. स्नानगृहे अग्निं प्रज्वालितवती, अत्र अपि समानार्थकपदमेव, ज्वालितवती प्रज्वालितवती. सो अत्र एतस्य स्वरूपस्य नाम अस्ति निच् प्रयोगः इति. सो अत्र अग्निः ज्वलति, अहम् अग्निं ज्वालयामि. चलति चालयति, पठति पाठयति इव, ओके, अग्निं प्रज्वालयामि. ज्वालितवती इति अपि पर्याप्तम्, अग्निं ज्वालितवती प्रज्वालितवती किञ्चित् अर्थपोषणं भवति, इतोपि स्पष्टं भवति. कूपात् जलम् उद्धृतवती, धृतवती उद्धृतवती, एतत् अपि समान अर्थकपदमेव, उद्धृतवती इति. प्रश्नः वा? अस्तु, उमाकृष्णन् भगिनी अग्रे.
तर्हि इत्युक्ते सो इस् इट्?
तर्हि मीन्स् ओके देन् इति अर्थे.
ओके, ऐ एम् सोरि, ऐ मिस्ड् वेन् यु एक्स्प्लेन् एतादृशानि भगिनि, वाट् इस् इट् मीन्?
अस्तु, सो अत्र वयं जानीमः खलु ईदृश तादृश, सो अत्र दृश इत दृश दृश, सो अत्र कार्याणि नपुंसकलिङ्ग बहुवचनरूपम् अस्ति, सो अत्र दृशानि इति भवति. पार्श्वे अस्ति अतः एतादृशानि इति इति भवति, एतादृशानि कार्याणि इति. उद्धृतवती इत्युक्ते कूपात् जलम् आनीतवती इति, इत्युक्ते टु पुल् अप्.
भगिनि, हौ मेनि उपसर्गः सन्ति?
22.
ओके,
द्वाविंशति.
How do we know when to use them? I mean, it's just through reading and... Okay.
Asta, Uma Krishnan Bhagini?
Aam Bhagini. Mata, Vatshe Agachatu Bhavati Atra. Okay, there was one icon. Kshiram Ushtarotu Bhojanam Bhojan Katam Prasarayatu Prasarayatu ततः उपहारं परिवेशयतु, प्रकोष्ठे दीपः ज्वलति, तं निर्वापयतु, तदेव पिता न उत्थितवान् इति मन्ये, तम् उत्थापयतु, उत्थापयतु,
उत्थापयतु. सो अत्र वत्से इति अस्ति सम्बोधन, पुल्लिङ्गं वा स्त्रीलिङ्गं वा अत्र वत्से?
द्विवचन पुल्लिङ्ग,
पुल्लिङ्ग
वत्से. सो उदाहरणार्थं रामः इति अस्ति चेत् सम्बोधन कथं?
द्विवचन,
हे राम, हे राम,
राम रामः इति चेत् राम सीता अस्ति चेत् सीते सो अतः स्त्रीलिङ्ग लैक् अतः वत्सा इति अस्ति वत्सा वत्से इति भवति सम्बोधनरूपे वत्से अत्र भवति आगच्छतु भवति सो अत्र तु अस्ति भवति अत्र आगच्छतु अथवा आगच्छतु भवति अत्र क्षीरम् उष्णीकरोतु उष्णी इति उपसर्गः नास्ति परन्तु उपसर्गतुल्य भवति इत्युक्ते उपसर्गः इव कार्यं करोति सो अत्रापि स्वच्छीकरोति अस्ति वा अत्र नास्ति स्वच्छीकरोति उष्णीकरोति अस्तु स्वच्छीकरोतु अपि अस्ति स्वच्छीकरोतु उष्णीकरोतु भोजनकटं प्रसारयतु कटम् इत्युक्ते मेट् इति वदामः मेट् भोजनकटं प्रसारयतु प्रसारयतु इत्युक्ते अधः प्रसारयतु समानार्थकपदम् किं भवति अत्र एकनिमिषम् अस्तु सो अत्र प्रसारयतु अधः स्थापयतु इति ध्येयमन्त्रे अस्ति खलु संस्कृतस्य प्रसाराय सर्वत्र प्रसारं करोमि इत्युक्ते सर्वत्र वदामि सर्वे जानन्तु इति सो समान अर्थकं पदमेव एतत् अपि प्रसारयतु टु स्प्रेड् ततः ततः इत्युक्ते अनन्तरम् उपाहारं परिवेषयतु वेषयतु परिवेषयतु सो अत्र वेषयतु इत्युक्ते वेषणं धरतु वेषं धरतु इति अर्थ खलु वेषम् इत्युक्ते पुट् आन् क्लोस् इति परिवेषयतु इत्युक्ते सर्व् इति भवति सो अत्र अपि आहारम् उप आहारम् आहारम् इत्युक्ते भोजनम् उप आहारम् इत्युक्ते अल्पाहारम् लैक् स्नाक्स् इति इव उप आहारम् उपाहारं परिवेषयतु अस्तु प्रकोष्ठे दीपः ज्वलति सो अत्र ज्वलति सो अत्र ज्वालयति ज्वलति इत्युक्ते स्वयं ज्वलति दीपः ज्वलति अत्र दीपः नास्ति चेत् दीपं ज्वालयतु इति वक्तुं शक्नुमः परन्तु दीपः ज्वलति इदानीं तं निर्वापयतु आपयतु निर्वापयतु इत्युक्ते आफ् करोतु इति टर्न् इट् आफ् तथैव तथा एव पिता न उत्थितवान् अत्र स्थितवान् उत्थितवान् इट् बिकम्स् उत्थितवान् स्थितवान् इत्युक्ते टु स्टाण्ड् आर् टु वेट् तत्र तिष्ठतु इति वदामः चेत् वेट् देर् फर् मी अथवा स्टाण्ड् देर् तिष्ठतु उत्थितवान् इत्युक्ते शयनात् उपरि स्टाण्ड् अथवा प्रथमम् उपविशति उपविशस्थानतः उपरि तिष्ठतु इति सो उत् इत्युक्ते उपरि इति अर्थे उत् इति मन्ये पिता न उत्थितवान् इति मन्ये तम् उत्थापयतु सो अत्रापि निच् प्रयोगः वेक् हिम् अप् इति अर्थे स्थापयतु इत्युक्ते पुट् इट् खलु तत्र स्थापयतु उत्तापयतु वेक्षिम भिन्न अर्थं भवति प्रश्नः वा न इति मन्ये अस्तु अग्रे संध्या भगिनी
आम भगिनि ललिता अम्ब एवं तर्हि अहं कदा पठामि मम कष्टम् अत्र कोऽपि न अवगच्छति
Beautiful color.
Nobody understands my problems.
So atra gachyati ava iti yoge bahu bhinna artham bhavati. Gachyati ava gachyati. Gachyati agachyati. Gachyati pratyagachyati. Iti. Evam tarhi, if this is the case, evam tarhi. Evam means this. That he means like then. If this is then, aham kada patami mama kashtam atra kopi na avagachati. So atra kaha apicha api iti asti. Kaha api na avagachati. Paranto, a is represented by this chinna, avagraha chinna. Paranto, uccharana samaye a iti na uccharanam. न उच्चारणं करणीयं कोऽपि एव विल् बिकम् ओ
कोऽपि एण्ड् नाट् कोऽपि
कोऽपि न कोऽपि एव अस्तु अग्रे पठामः ज्योति भगिनी पठति वा विशेषः
उपसर्गाः द्वाविंशतिः ते च ते च प्र परा अप सम अनु अव निस् दुस् दुर् वि आङ् आङ् आङ्न भगिनि
Ang eva bhagini. Actually, it is only a.
Okay.
Parantra uccharana saukaryartam ingiti yojitavantah. Ang iti. A eva.
A, ni, adhi, abhi, api. No, adhi, adhi, api, athi, su, at, ut, abhi, prati, परि
उप उप अपि
उप
न न चिन्ता मास्तु सो अत्र आङ्ग् आङ्ग् इति वदतु सम्यक्
अस्तु भगिनि आङ्ग्
आङ्ग् अपि अस्तु अत्र एतदपि पठतु
उदाहरण प्र प्लस् भवति प्रभवति निर् निर् What to say for plus, Vagini?
Yoga.
Plus. Huh?
Yoga.
Yoga. Yoga. Hmm. Okay. Nir yoga a yoga karoti nirak karoti.
Nirak karoti. Bahu binna artham bhavati kalo. Karoti itikte kimabhi karyam karoti. निराकरोति इति सो अत्रापि भवति प्रभवति समानार्थम् अर्थमेव चलति प्रचलति समान अर्थक पदमेव अस्तु अग्रे परमेश्वर महोदय
अलं बाहिं
बहिः
Sorry. Alam, Bahis, Andar, Ityadayaha, Abhi, Upasarga, Tulyaha. Tulyaha. Tulyaha, Bhavandi. Udaharanam, अलङ्करोति बहिष्करोति अन्तर्भवति
अन्तर्भवति अस्तु सो अत्र अलम् इति पदस्य अर्थम् अस्ति पर्याप्तम् इति इत्युक्ते बालकाः बहु कोलाहलं कुर्वन्ति इति अस्ति
चेत्
पर्याप्तं या सो विषये हे हे बालकाः कोलाहलेन अलम् इति वदामः अलम् कोलाहलेन अलम् इति वदामः परन्तु अत्र अलं योग करोति इति अस्ति चेत् अलङ्करोति इति उत्तमवाक्यं वदति खलु गृहस्य अलङ्कारं करोति अलङ्कारविषये बहु इच्छा
गृहस्य अलङ्करोति
अलङ्करोति गृहम् अलङ्करोति सो
गृहम्
गृहम् अलङ्करोति अथवा गृहस्य अलङ्कारं करोति इति भवति सो अत्र बहिस् इत्युक्ते औट्सैड् इति अन्तः न बहिस् इति सो अत्र अपि अन्तर्भवति बहिस् भवति बहिष्करोति करोति इति अस्ति चेत् बहिः गमयति इत्युक्ते मेक् हिम् गो औट्सैड् बहिष् गमयति बहिष् करोति नो इट्स् नाट् आपोसिट् करोति इट्स् अ डिफ्रेण्ट् मीनिङ्ग् बहिष् करोति मीन्स् मेक् हिम् गो औट्सैड्
ओके
अहं तं बहिष् करोमि इति अत्र अन्तर्भवति इत्युक्ते अन्तः अस्ति उदाहरणार्थं वयं किम् इति वदामः चेत् कः का अपि अन्तर्भवति इति अर्थे भवति अस्तु ओके
एकनिमिषं पुनः विवृणोतु अहं न अवगच्छामि
अस्तु अत्र भवति इति वाक्यम् अस्ति तत्र भवति कुत्र भवति कः इति प्रश्नवाक्यम् अन्तर्भवति कुत्र अन्तर्भवति किम् इति पदे अन्तर्भवति कदा कथम् इति प्रश्नः अस्ति चेत् किम् इति पदस्य पुल्लिङ्गः अस्ति कः किम् इति पदस्य स्त्रीलिङ्गः अस्ति का किम् इति पदस्य नपुंसकलिङ्गम् अस्ति किम् अतः कः का अपि किम् इति पदे अन्तर्भवति अवगच्छति वा अन्तर्भवति मीन्स् इट् इस् इन्सैड् अन्तः भवति सो अन्तः विसर्गः विल् बिकम् रेफा अन्तः भवति विल् बिकम् अन्तर्भवति
भगिनी एकः प्रश्नः अन्तर् एतत् सम्यक् वा इति कृपया वदतु अन्तर्भवति इत्युक्ते डिसपियर् अण्ड् आविर्भवति इत्युक्ते अपियर् वा
आविर्भवति इत्युक्ते अप्यर् निश्चयेन बट् अन्तर्भवति डिसपियर् इति न अहम् अन्तर्भवति इति अन्तः अस्ति इति एव न जानामि भगिनि
आविर्भवति इत्युक्ते अप्यर्
अप्यर् आविर्भवति इत्युक्ते इट् इस् तत् सत्यम् अस्तु धन्यवादः
भगिनि सम् आफ् दीस् प्रिफिक्सेस् एस् यु रैट्लि पायिण्टेड् औट् वित् नामपदं वुड् हेव् अ कम्प्लीट्लि डिफ्रेण्ट् मीनिङ्ग् लैक् फार् इन्स्टेन्स् इन् अ वर्ड् लैक् बहिर्मुख सो देट् वुड् बि बहिर् प्लस् मुख इट् कम्प्लीट्लि चेञ्ज् दि कम्प्लेक्षन् आफ् द वर्ड् इसन्ट् इट् भगिनि
बहिर्मुख मीन्स् लैक् हेस् अ डिफ्रेण्ट् way how he's seen by the others iti arthe kalo bahir bahir bahir
अन्तर्मुख So, Bahirmukha would be extrovert or external view.
External.
Looking outward and Antarmukha is looking inward.
Yeah. We can, the meaning changes according to circumstance, Kalo.
Yeah.
So, Bhagini, here, but then they are Nama Padams, no? I mean, Mukha would be a Nama Padam.
Uttama Bhagini, so that is why it is not a Upasarga Tulya. Paranto Alang Karoti is Kriyapadameva. Karoti api Kriyapadameva. Bhavati api Kriyapadameva. Paranto Upasarga Nasti. Bahis Alam Anta Iti उपसर्गः नास्ति परन्तु उपसर्गतुल्याः उपसर्गः इव उपसर्गवत् इति वदामः वयम् एवमेव अस्तु उषा भगिनी पठति वा अग्रे स्वी इति
स्वी उष्णी सज्जी इत्यादयः अपि उपसर्गतुल्याः एव
वस्तुतः दे आर् काल्ड् चिप् प्रत्यय
च्विप् प्रत्ययान्ताः इति उच्यन्ते उदाहरणं स्वीकरोति उष्णीकरोति सज्जीकरोति
सज्जीकरोति टु गेट् रेडि to prepare
okay
agre pashyamah upasarga niyamah iti asti gopika bhagini arambham karoti va astu
so upasargah atva so it's called chvi pratyayah kalu
chvi So, they are not Upasarga. Upasarga tulya asti kalu, svikaroti, ushnikaroti iti. Svi pratyaya, chvi. Astu. Upasarga niyamaha.
Upasarga niyamaha, upasargaha dhatoho purvam bhavanti. Upasarga karanataha kadachit dhatoho artaha parivartate. उदाहरणार्थं गच्छति आगच्छति वदति प्रतिवदति
निश्चयेन अस्तु अग्रे केतकी भगिनि सारी केतकी भगिनि
कदाचित् उपसर्गः धातोः अर्थम् एव पोषयति अन्यम् अर्थं न सूचयति इत्यर्थः उदाहरणं शोभते सुशोभते
अस्तु उत्तमम् अस्तु अग्रे सागरी भगिनी
वित्राः उपसर्गाः अपि कदाचित् भवितुम् अर्हन्ति उदाहरणं प्रति योगे योग आ योग गच्छति प्रत्यागच्छति योग अव योग स्थापयति व्यस्थापयति प्रतियोग उत् योग आ योग हरति प्रत्युदा हरति
प्रत्युदा सो अत्र उपसर्गाः धातोः पूर्वं भवति धातोः परम् अस्ति चेत् तस्य नाम किम् प्रत्ययः सो अत्र उपसर्गः प्रत्ययाः इति उपसर्गाः प्रत्ययाः धातोः अनन्तरम् अस्ति चेत् प्रत्ययाः पूर्वम् अस्ति चेत् उपसर्गाः उपसर्गकारणतः कारणात् इति अपि वक्तुं शक्नुमः कदाचित् धातोः अर्थं परिवर्तते भिन्न अर्थं भवति साक्षात्
विपरीत अर्थम् इति न आपोजिट् इति न भिन्न अर्थम् गच्छति अवगच्छति गच्छति अवगच्छति प्रत्यागच्छति वदति अनुवदति प्रतिवदति इति अनु प्रति इति उपसर्गः धातोः अर्थमेव पोषयति पोषयति इत्युक्ते भिन्न अर्थं न इति अर्थे अन्यम् अर्थं न सूचयति सो भिन्न अर्थं न भवति कदाचित् भिन्न अर्थं भवति कदाचित् समानार्थमेव भवति शोभते सुशोभते अस्तु स्वागतीकरोति सुस्वागतीक परन्तु तत्र सम्यक् नास्ति शोभते सुशोभते सु इति उपसर्ग द्वित्ता द्वित्रा उपसर्ग सो अत्र उपसर्गः इति पुल्लिङ्गपदं खलु सो द्वौ एव विषये फार् टु द्वौ द्वौ How do we say for three?
Trini.
Traya.
So for pullinga we say trayaha. Dvau trayaha upasargaha. That is equal to dvitra. So this is just one way of writing it. Dvitraha upasargaha api kadachit bhavitum arhanti. So udaharanani. गच्छति गच्छति आगच्छति आगच्छति प्रत्यागच्छति इत्युक्ते पुनः अत्र आगच्छति इति अर्थे प्रति इति अर्थ अस्ति टुवर्ड्स् इति प्रति अहं भवतीं प्रति वदामि इत्युक्ते भवती अत्र अस्ति अहं भवतीं प्रति एव वदामि भवती मां न शृणोति किम् एतत् इति अहं वक्तुं शक्नोमि प्रति इत्युक्ते टुवर्ड्स् यु डैरेक्षन् दिशि ओके दिशि प्रत्यागच्छति अस्तु स्थापयति स्थापयति इत्युक्ते तत्र स्थापयतु इति अर्थे मम उपनेत्रं तत्र स्थापयतु अवस्थापयतु व्यवस्थापयतु सो अत्र व्यवस्थापयतु इत्युक्ते अरेञ्ज्मेण्ट् अथवा एस्टाब्लिश्मेण्ट् सो अत्र अर्थपोषणं खलु अर्थपोषणम् अत्र विपरीतन अर्थपरिवर्तनम् अभवत् अत्र गच्छति आगच्छति प्रत्यागच्छति परिवर्तनम् अभवत् अत्र अर्थपोषणम् अभवत् समान अर्थ एव परन्तु इतोपि अधिकं ज्ञानम् अस्ति अत्र स्थापयति अत्र उदाहरणार्थं सः चिकित्सालयं स्थापयति तत् सम्यक् नास्ति परन्तु व्यवस्थापयति इत्युक्ते एस्टाब्लिश्ड् इति अर्थे इतोपि अधिकम् अर्थमस्ति अत्र पोषणमस्ति हरति हरति इत्युक्ते टु रिमूव् टेक् अवे टु रिमूव् अस्तु हरति आहरति इत्युक्ते आहारं स्वीकरोति टु ईट् खादति इति अर्थं भवति
When it is opposite, right, Bhagini?
Not opposite, but different.
Different, okay.
परिवर्तनं परिवर्तनं I'm sorry, कुत्र अस्ति
प्रति योग उत् योग
किं भगिनि
इट्स् प्रत्युदाहरति हौ डिड् वि गेट् दा इन् देर् प्रत्यु
अहं वदामि सो आहरति इत्युक्ते खादति इति आहारं करोति आहरति उत् आहरति सो अत्र नियमः अस्ति सन्धिनियमः अस्ति
सो अत्र तकारात् अनन्तरं तकारात् परम् आ अथवा मृदु व्यञ्जनमस्ति चेत् तकारस्य स्थाने दकारः भवति. सो इट् बिकम्स् उदाहरति. उदाहरति मीन्स् टु गिव् एक्साम्पल् खलु. उदाहरति प्रति प्लस् उ दि इ विल् बिकम् यु य प्रत्युदाहरति इत्युक्ते टु आन्सर् आहरति मीन्स् टु ईट् रैट् आहारं करोति आहरति
बट् प्रत्युदाहरति मीन्स् आन्सर् गिव्
आन्सर्
ओके
उदाहरति मीन्स् टु गिव् एक्साम्पल् उदाहरणं करोमि अहम् उदाहरामि वि नेवर् से दट् वि जस्ट् से अहम् उदाहरणं ददामि उदाहरणम् उदाहरति उदाहरामि प्रत्युदाहरामि इत्युक्ते अहम् उत्तरं ददामि इति अर्थे भवति. प्रश्नः वा इतोपि पर्यन्तम् अस्तु अग्रे सारदा भगिनि शारदा भगिनी अस्ति वा अस्तु सविता भगिनी
आं भगिनि उपसर्गकारणतः कदाचित् परस्मैपदी धातुः आत्मनेपदित्वम् आत्मनेपदी धातुः परस्मैपदित्वं च प्राप्नोति. उदाहरणं वियोग जयति विजयते प्रयोग तिष्ठति प्रतिष्ठते वियोग रमते विरमति
विरमति. सो अत्र वयं एतावत्पर्यन्तं ति 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 इति अन्ते धातोः क्रियापदं क्रियापदानि सन्ति तानि एव वयं जानीमः खलु. सो अत्र धातोः विभजनम् अस्ति. एकमस्ति ति अन्ते अन्ते भवति एकमस्ति ते अन्ते भवति ते ते इति ति अन्ते अस्ति चेत् तस्य नाम अस्ति परस्मैपदी धातु इति परस्मैपदी धातु. क्रियापदानाम् अन्ते ते इति पश्यामः चेत् शृणुमः चेत् तस्य नाम अस्ति आत्मनेपदी धातु आत्मनेपदी धातु. सो अत्र उपसर्गकारणात् कदाचित् परस्मैपदी धातु एतत् परस्मैपदी धातु ति इति अस्ति जयति वि अस्ति चेत् वि योगे विजयते इति भवति जयति विजयते इति भवति. सो परस्मैतः आत्मनेपदी भवति आत्मनेपदितः परस्मैपदी अपि भवति रमते वियोगे विरमति इति भवति तिष्ठति प्रतिष्ठते इति भवति. सो अत्र समान अर्थमेव भवति जयति विजयति तिष्ठति to stand pratishtate is to established vyavasthapayati iti arthe pratishtapanam karoti iti vadama kalu pratishtapanam mandirasya pratishtapanam iti ramate is to enjoy muhyate iti to rejoice vi yoge viramati viramati itukte to stop वयं सम्भाषणे
विरमामः
विरमामः कार्यालयस्य विरामदिनं विरामः विरामं स्वीकुर्मः. सो अत्र विरमति विरामं to stop iti arthe.
Are these just exceptions that we just have to remember that it can happen like that, or
no, it happens all the time, Bhagini. So we just have to be so I mean we don't need to get, oh, how am I going to remember all this? So it will happen all the time. Okay, so we are going to see it all the time, and then I will point out as much as I can, and then we'll just observe and remember, and we forget, we remember, forget, remember. So it's like that. Fun.
Okay.
So this is the journey, huh? Uttama journey. Prayanam samyak asti. Astu. Astu. Uma Krishnan Bhagini, vayam abhyasam prati gachamaha. अभ्यासम् अस्ति उपसर्गसहितेन योग्येन धातुरूपेण रिक्तस्थानानि पूरयत. उत्तमवाक्यं खलु?
आं भगिनि.
आं भगिनि.
पूरयत, कुत्र पूरयत? रिक्तस्थानानि पूरयत. अत्र विभक्ति का?
तृतीय.
रिक्तस्थानानि
सहितेन योग्येन
तेन योग्येन तृतीय निश्चयेन रिक्तस्थानानि
बहुवचन
बहुवचनं द्वितीय द्वितीय कुत्र इति अस्ति चेत् द्वितीय निश्चयेन कुत्र पूरयत रिक्तस्थानानि पूरयत इति अस्ति उपसर्ग सो ऐम् सारि रिक्तस्थानानि पूरयत केन पूरयत धातुरूपेण पूरयत धातुरूपेण तृतीया एकवचनं धातुरूपेण पूरयत कीदृशधातुरूपेण योग्येन उचितेन दि मोस्ट् अप्राप्रियेट् इति उचितेन योग्येन धातुरूपेण रिक्तस्थानानि पूरयत पुनः कीदृश योग्येन धातुरूपेण उपसर्गसहितेन उपसर्गसहित इति वदामः चेत् उपसर्गसहितयोग्य वयं मिलित्वा वदामः चेत् वयं मिलित्वा लिखामः चेत् उपसर्गधातुरूपेण अत्र विभक्तिरूपाणि नास्ति खलु उपसर्गसहित योग्यधातुरूपेण धातुरूपेण अन्ते एव उपस विभक्तिरूपं पश्यामः परन्तु एतस्य नाम किं समासपदं खलु समस्तपदम् अथवा समास परन्तु अत्र विभज्य लिखामः चेत् उपसर्गसहितेन योग्येन धातुरूपेण रिक्तस्थानानि पूरयत अस्तु सो अत्र भगिनि
उपसर्गसहितेन योग्येन इस् इट् विशेषणम् आफ् धातुरूपेण
निश्चयेन निश्चयेन विशेषणम् आफ् धातुरूपेण धातुरूपेण इस् लैक् द लीडर् हियर् आल् दीस् आर् डिस्क्रैबिङ्ग् द लीडर् सो इट् हेस् टु गो अकार्डिङ्ग् दट् अस्तु सो अत्र हृ इति धातु हरति इति रूपं भवति क्रियापदरूपं प्र सं वि परि अप् इति उपसर्गाः सन्ति अस्तु उमाकृष्णन् भगिनी उदाहरणं पठतु अनन्तरं वाक्यमपि करोतु
अध्यापकः बालकं प्रहरति
सो अत्र हरति इत्युक्ते टु रिमूव् खलु टु रिमूव् उदाहरणार्थं शिवस्य नाम अस्ति हरः इति हरः हि रिमूव्स् अवर् सारोस् इति अर्थे अस्ति रिमूव् और् डिस्ट्राय् प्रहरति इत्युक्ते टु हिट् और् टु स्लाप् प्रहरणं करोति अस्तु अग्रे चोरः
धनं अपहरति
अपहरति टु टेक् इट् अवे अपहरति टु स्टील् अपहरति टु स्टील् चौर्यं करोति अपहरति चौर्यं करोति अस्तु अन्यत् एकमपि करोतु भगिनि
राजा शत्रुं विहरति कन्फ्यूस्ड्
या सो वि केन् लुक् सो दट्स् द रीज़न् ऐ सेड् एव्रिथिङ्ग् टुगेदर् वि केन् सी सो अत्र वि हाव् टु लुक् अट् उचितेन पदं योग्येन पदम् ओके सो जनाः उद्याने किं करोति प्रहरति वा संहरति वा मिलित्वा एव कुर्मः विहरति सो अत्र धनम् अपहरति अपहरति पण्डितः समस्यां किं करोति
परिहरति
राजा शत्रुं
संहरति
संहारं करोति वयं श्रुतवन्तः प्रायः संहारम् इत्युक्ते अटाक् डिफीट् अटाक् कृत्वा डामिनेशन् इति अर्थे संहरति विहरति परिहरति इत्युक्ते किं टु आन्सर् अथवा
परिष्कारं करोति
परिष्कारं करोति ओके समस्यां परिहरति परिष्कारं करोति अस्तु अग्रे
राजा द्वितीयं किं भगिनि राजा
संहरति
धन्यवादः
संहरति पण्डितः समस्यां परिहरति इत्युक्ते टु आल्सो टु रिमूव् आर् आन्सर् साल्व् इति अस्ति परिहरति अस्तु
धन्यवादः
धन्यवादः भगिनि सो अत्र अपि मिलित्वा एव कुर्मः कनिष्ठः ज्येष्ठस्य व्यवहारम् अत्र कृ धातु अस्ति कृ धातु क्रियापदरूपमस्ति करोति अलङ्करोति वयं जानीमः न अर्थः कः इति खलु अलङ्करोति अलङ्कारं करोति अलङ्कारम् उष्णीकरोति इत्युक्ते
माता क्षीरम् उष्णीकरोति
उष्णीकरोति अस्तु पुटीकरोति इत्युक्ते टु फोल्ड् आटु रोल् इट् अप्
भगिनी वस्त्रं पुटीकरोति
अस्तु अस्तु वस्त्रं पुटीकरोति उष्णीकरोति माता क्षीरम् उष्णीकरोति
गृहिणी गृहम् अलङ्करोति
गृहम् अलङ्करोति अत्र अलम् इति भिन्न अर्थम् अलं करोति इति भिन्न अर्थम् अस्तु अनुकरोति इत्युक्ते टु कापि आर् टु फालो
सो कनिष्ठः ज्येष्ठस्य व्यवहारं
अनुकरोति
भगिनि
वदतु भगिनि
पुटीकरोति इत्युक्ते किं कृपया पुनः
पुटीकरोति इत्युक्ते टु फोल्ड् आर् टु रोल् टु रोल् संथिङ्ग् योगाकटः अस्ति अहं योगाकटं पुटीकरोमि वस्त्राणि सन्ति अहं वस्त्राणि पुटीकरोमि इति अर्थे भवति
अस्तु
अस्तु सज्जनः हितवचनं न न निराकरोति हितवचनम् इत्युक्ते उत्तमवचनं हिताय भवतु गोपिका भगिन् किम् उक्तवती
न भगिनि फ्रेण्ड्लि
फ्रेण्ड्लि आर् बेनिफिशियल् इति वदामः एकं गीतमस्ति खलु भारतदेशहिताय इति भारतदेशहिताय सज्जनः हितवचनं न निराकरोति अथवा सज्जनः हितवचनम् अङ्गीकरोति ओके निराकरोति अथवा अङ्गीकरोति अङ्गीकरोति हितवचनम् अङ्गीकरोति अस्तु अन्येकं कृत्वा समापयामः सज्जनः जनान् उपकरोति उपकरोति इत्युक्ते उपकारं करोति साहाय्यं करोति इति अर्थे भवति उपकारम्
भगिनी वस्त्रं पुटीकरोति
भगिनी वस्त्रं पुटीकरोति अस्तु समयः अभवत् वयं समापयामः विरमामः स्वागतं मालति भगिनी अस्तु
मिस्सिङ्ग् इन् म्यूट् भगिनि
किं भगिनि
लिस्निङ्ग् इन् म्यूट्
आमां पश्यामि जानामि जानामि धन्यवादः भगिनि अस्तु का इदानीं शान्तिमन्त्रं वदति अस्तु ॐ
सर्वे भवन्तु सुखिनः सर्वे शान्तु सर्वे ॐ शान्ति शान्ति शान्तिः हरिः ॐ गुरुभ्यो नमः हरिः ॐ
धन्यवादः भगिनि
धन्यवादः भगिनि
अहम् अनुकरोमि भगिनि